بصي انت يا ميتك شام شطور صفاتها يا كرنا شاستري अत्यन्तम् औपैकानां कथाञ्चन संज्ञानां परिभाषाणां तथा लक्षणानाम् अध्ययनं कुर्मः येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. व्याकरणस्य परम्परायाः विषये किञ्चित् ज्ञातम्. इदानीं व्याकरणस्य मूलभूताः केचन विषयाः. आदौ सूत्रम् इति उच्यते. व्याकरणं नाम सूत्रम् इति अस्ति. महाभाष्यपस्पशाह्निके तस्यैव चर्चा विद्यते. व्याकरणं नाम किं, सूत्रस्य व्याकरणमिति नाम वा, प्रयोगस्य व्याकरणमिति नाम वा इत्यादि विचार्य व्याकरणं नाम सूत्रम् इति उक्तं भाष्यकारेण. तर्हि सूत्रं नाम किम् इति प्रश्नः उदेति. सूत्रस्य लक्षणं ज्ञातुं कश्चन श्लोकः विद्यते. अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतो मुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः. सूत्रविदः ये सूत्रस्य मर्मं जानन्ति ते सूत्रम् ईदृशं वदन्ति. कीदृशं? षड् लक्षणयुतम् एव सूत्रं भवति. कानि तानि लक्षणानि इत्युक्ते, अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यम्. अल्पाक्षरम्, अल्पानि अक्षराणि यस्मिन् तत् अल्पाक्षरम्, अर्थात् बहु संक्षिप्तं यदस्ति तत् इत्येव अर्थः. यावच्छक्ति अक्षराणाम् उपयोगः अल्पः स्यात्, किन्तु तस्मिन्नेव समये अल्पाक्षरत्वम् इत्यनेन किम् उच्यते इति न ज्ञायते इति न भवेत्. अत एव असन्दिग्धं, सन्देहरहितमपि भवेत्. सो द वे सूत्र शुड् बि पुट् इस् इट् शुड् बि एस् शार्ट् एस् पासिबल्, at the same time being as clear as possible. Being short should not give rise to questions, or it should not be that the meaning of the sutra itself is not clear. Alpaksharam asandigtham saravat vishvato mukham. Saravat atyantam sarayitam gabhiram sutram syat arthayuktam syat vishvato mukham tasya upayogah bahushu dikshu syat. अर्थात् एकं प्रयोगं साधयितुम् एकं सूत्रम् इत्यादिरीत्या न भवेत्. एकेन सूत्रेण बहूनि प्रयोजनानि साधितानि स्युः, तदैव उत्तमं सूत्रम् इति कथ्यते. अस्तोभम्, स्तोभं नाम व्यर्थता इत्यर्थः. अर्थात् व्यर्थतया किमपि नोक्तव्यं सूत्रे. सूत्रे यद्यदुच्यते सर्वेषां पदानां सर्वेषां वर्णानामपि कश्चन अर्थः स्यात्. अस्तोभं नाम व्यर्थांशरहितं सूत्रं स्यात्. अनवद्यम्, अवद्यं नाम पापम् अथवा दोषः इत्यर्थः. दोषरहितम् अपि भवेत् इत्यर्थः. अस्तोभम् अनवद्यं, व्यर्थांशरहितं निर्दुष्टं सूत्रं स्यात् इति सूत्रस्य लक्षणम्. सो एनी रूल् विच् सेटिस्फैस् आल् दीस् properties can be called a sutra. It's what the sutra lakshana says. Okay. So, paniniya sutreshu etani sarvani lakshanani drishyante. Kachita sandehaha bhavati nasti iti nam. Kachita sutram drishtvapi sandehaha syat. Tasya nivaranam cha vyakhyanaihi, artikaihi, bhashyenava kriyate. Tathapi, for the most purposes, all these lakshanas can be found in the sutras of Panini. So, sutra lakshanam alpaksharam asandigdham saravate vishvatomukham astobham anavadyam cha sutram sutra vidovidhu. Tahi him nama vartikam, sutram vartikam bhashyam iti vyakaranasya प्रमाणभूताः ग्रन्थाः. सूत्रं नाम किम् इति ज्ञातुं, वार्तिकं नाम किम् इति प्रश्नः. एण्ड् एतानि लक्षणानि केवलं व्याकरणस्य सूत्राणां व्याकरणस्य वार्तिकानां वा न सर्वेषु शास्त्रेषु सन्ति. सूत्राणि सन्ति, वार्तिकानि सन्ति, भाष्यमपि अस्ति. यथा वेदान्तशास्त्रे अस्ति, मीमांसाशास्त्रे अस्ति, न्यायशास्त्रे अस्ति. दिस् इस् दिस् कन्स्ट्रक्षन् आफ् सूत्रवार्तिकभाष्य इस् कामन् टु आल् शास्त्रास्. सर्वत्र सूत्रं नाम एतादृशमेव स्यात्. अल्पाक्षरत्वं स्यात्, असन्दिग्धत्वं स्यात्, व्यर्थांशरहितत्वं स्यात्. सर्वत्र सूत्रलक्षणम् एवमेव. तथैव वार्तिकस्य लक्षणमपि सर्वेषु शास्त्रेषु एवमेव भवति. किं नाम वार्तिकम् इति चेत्, उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञमनीषिणः. यत्र अर्थात् यस्मिन् वाक्ये, वार्तिके, उक्त अनुक्त दुरुक्तानां चिन्ता प्रवर्तते. उक्तं नाम सूत्रकारेण यदुक्तं. सूत्रमस्ति इदानीं वृद्धिरादैच् इति. सूत्रकारः वृद्धिः आत् ऐच् इति उक्तं. तस्य विषये चिन्तनम्. अर्थात् आत् इति किमर्थमुक्तम्, ऐच् इति किमर्थमुक्तम्, किमर्थम् अन्यथा नोक्तम् इत्यादिरीत्या सूत्रकारेण यद् उक्तं तस्य विषये चिन्तनं क्रियते वार्तिके. अनुक्तं सूत्रकारेण यत् नोक्तं, कदाचित् वार्तिकानि एवमेव भवन्ति. इदानीं पञ्चमी भयेन इत्यस्ति. पञ्चमी तत्पुरुषसमासः भयशब्देन भवति, किन्तु केवलभयशब्देन न भवति. भय भीति भीभिः इति वाच्यम् इति वार्तिककारः वदति. भीति भीः इत्येतानि पदानि, इत्यादीनि पदानि सूत्रकारेण नोक्तानि, तान्यपि योजनीयानि इति वार्तिककारेण उच्यते. अर्थात् अनुक्तस्य चिन्तनं प्रवर्तते. सूत्रकारेण यत् नोक्तं तस्य चिन्ता भवति. उक्त अनुक्त दुरुक्तानां, दुरुक्तं नाम दृष्टा उक्तिः इति नास्ति. इमीडियट्लि इन् हियरिङ्ग् दुरुक्त वि थिङ्क् दट् वाट् इस् राङ्ग् ही सेट्, दट् इस् नाट् द के. यत् क्लिष्टतया सन्दिग्धतया वा उक्तम् इत्यर्थः. दुरुक्तं नाम अवगन्तुं दुर्गमरूपेण यदुक्तं, यत्र अवगमने क्लेशः स्यात्, सन्दिग्धता स्यात्. सूत्रं नाम सन्दिग्धता न भवेत् इति सत्यं सूत्रलक्षणं, किन्तु कदाचित् भवत्येव. यत्र सूत्रकारेण तथा क्लिष्टतया उक्तं तस्य स्पष्टीकरणं क्रियते वार्तिकेन. स्पष्टीकरणार्थं तद्विषये चिन्तनं क्रियते. किमर्थम् एवं वदति, कः अर्थः अस्य वाक्यस्य इत्यादिरीत्या. उक्त अनुक्त दुरुक्तानां चिन्ता यत् प्रवर्तते तं ग्रन्थं वार्तिकं प्राहुः. तादृशः ग्रन्थः, तादृशानि वाक्यानि वार्तिकानि इति कथ्यते. उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञाः मनीषिणः. सूत्रं वार्तिकम् अतः भाष्यम्. भाष्यं नाम किं तर्हि इति चेत्, सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु. यत्र सूत्रार्थः वर्ण्यते, सूत्राणाम् अर्थस्य विवरणं क्रियते. वार्तिकेषु सूत्रार्थस्य विवरणम् इति न भवति. वार्तिकेषु किं भवति, तस्य विषये आक्षेपः समाधानं च क्रियते. व्याकरणभाष्यस्य अध्ययनेन ज्ञायते. वार्तिककारः किं करोति, सूत्रस्य विषये, सूत्रे यदुक्तम् अनुक्तं दुरुक्तं वा, तस्य विषये आक्षेपं करोति, समाधानं वदति. तावदेव. सूत्रस्य अर्थः कः, उदाहरणानि कानि इत्यादिरीत्या वार्तिकस्य रचनं न भवति. भाष्ये तु सूत्रार्थः वर्ण्यते, सूत्रस्य अर्थः विशेषेण विव्रियते सूत्रानुसारिभिः वाक्यैः. भाष्यं नाम भाष्यकारः यज्जानाति तद्वक्तुं न, सूत्रकारेण यद् अभिमतं तस्य वर्णनार्थं भाष्यं रच्यते. अतः सूत्रानुसारिभिः वाक्यैः यत्र सूत्रार्थः वर्ण्यते इत्येकः भागः. स्वपदानि च वर्ण्यन्ते, भाष्यकारेण कदाचित् स्वयं किमपि वदति, तस्यापि वर्णनं कर्तव्यं भवति. सूत्रस्य अर्थवर्णनसमये भाष्यकारेण किमप्युक्तं, तस्यापि वर्णनं कदाचित् भवति. अर्थात् तस्य विषये आक्षेपः समाधानं वा भवति. तादृशं ग्रन्थं भाष्यं भाष्यविदो विदुः. सो सूत्रस्य वचनविषये सूत्रार्थं वर्ण्यते, तथैव भाष्यस्य अर्थः स्वपदान्यपि वर्ण्यन्ते भाष्ये इत्यर्थः. शारदा भगिनी, सूत्रं वार्तिकं भाष्यं एतेषां लक्षणं ज्ञातम्. व्याख्यानं नाम किम् इत्यपि अस्ति. व्याख्यानम् अत्यन्तम् उपयोगकरं भवति. तस्यापि शास्त्रग्रन्थस्य अध्ययने केवलस्य मूलग्रन्थस्य अध्ययनम् इति न भवत्येव, कदापि न भवति. मूलग्रन्थस्य अध्ययनं व्याख्यानस्य साहाय्येनैव क्रियते. Whatever text we study, wherever we go, we do not look only for the text. That is, if you look at Shastra Granthas, you will not find a book which gives only Moola. There are very few books which give only the text. So, and the demand for the text is also with the Vyakhyana. If I want to buy Siddhanta Kaumudi, I will say, give me Siddhanta Kaumudi which has Bala Manorama and Tattva Bodhini. If I have Praudha Manorama create, say, Shabda Ratna Sahitam Praudha Ratnam. शेखरः, राधिकासहितः शेखरः, प्रदीपोद्योतसहितं महाभाष्यम् इत्येव उच्यते. कस्यापि मूलग्रन्थस्य अध्ययनार्थं तेन सह, अर्थात् मूलग्रन्थेन सह व्याख्यानस्यापि अध्ययनं करणीयमेव. व्याख्यानमूलकमेव मूलग्रन्थस्य अध्ययनं भवति. व्याख्यानं नाम किम् इति प्रश्नः. पदच्छेदः, पदार्थश्च, विग्रहः, वाक्ययोजना, आक्षेपश्च समाधानं, व्याख्यानं षड्विधं मतम्. व्याख्यानेन षट् कार्याणि क्रियन्ते. कानि तानि कार्याणि? पदच्छेदः, पदानां विभागः, सन्धिं विभज्य कानि कानि पदानि सन्ति सूत्रे. वृद्धिरादैच् इत्यस्ति चेत् वृद्धिः, आत् ऐच् इति पदानां छेदः क्रियते. पदार्थः, प्रत्येकं पदस्य अर्थः विव्रियते. वृद्धिः नाम संज्ञा, आत् नाम दीर्घाकारः, ऐच् ऐकार औकारः इति उच्यते पदस्य अर्थविवरणम्. विग्रहः, विग्रह समासस्य विभागः, सन्धिः विभक्तव्यः, तथैव समासः. एकं पदमस्ति चेत् आदैच् इति यदि एकं पदं तर्हि तत्र कथं विग्रहः इत्यादि. एकाच् इत्यस्ति चेत् कथं विग्रहः? एकः अच् इति कर्मधारयो वा, एकः अच् यस्य सः इति बहुप्रीतिर्वा इत्यादि. समासे भिन्ने सति अर्थः अपि भिद्येत, तस्मात् कः समासः कोऽर्थः इति वक्तव्यम्. वाक्ययोजना, वाक्ये सूत्रस्य पदानां योजनम्, अर्थात् अन्वयरूपेण कथं भवति सूत्राणां योजनम् इति. आक्षेपः, समाधानम्. एतत् सूत्रस्य विवरणं भवति. सूत्रविवरणानन्तरम् अथवा न केवलं सूत्रस्य, कस्यापि ग्रन्थस्य विवरणं, तदनन्तरम् आक्षेपः, समाधानम्. आक्षेपः इत्यनेन किमर्थमेवम् उक्तं ग्रन्थकारेण, अन्यथा वक्तव्यमासीत् अथवा तस्य कथने दोषः इत्यादिरीत्या आक्षेपः क्रियते. स एव आक्षेपः पूर्वपक्षः इत्यपि ज्ञायते. तस्य आक्षेपस्य समाधानमपि उच्यते वक्तव्यं व्याख्यानेन. किमर्थं ग्रन्थकारेण एवम् उक्तम् इति समर्थनीयं भवति. स एव अथवा सिद्धान्तः वक्तव्यः. एवं षट् अङ्गानि भवन्ति व्याख्यानस्य. उत्तमं व्याख्यानमिति चेत् एतानि सर्वाणि अङ्गानि भवेयुः. पदच्छेदः, पदार्थश्च, विग्रहः, वाक्ययोजना, आक्षेपश्च, समाधानं, व्याख्यानं षड्विधं स्मृतम् इति व्याख्यानस्य लक्षणम्. Any questions so far? Sharada Bhagini, are you able to hear now? Anisha, any questions? Asti. Tadanantaram, Sutra Prabhenaha. Sutrasya Lakshanam Avagatam. Shad Lakshanani Bhavanti Sutrasya. అల్పాక్షరం అసందిగ్ధం సారవత్ విశ్వతోముఖం అస్తోభం అనవద్యం చ సూత్రం సూత్రవిదో విదు. ఇదానీం సూత్రస్య ప్రభేదాః, ఇదంతో వ్యాకరణస్యైవ. సూత్రలక్షణం సర్వేషాం శాస్త్రాణాం సూత్రాణాం భవతి. సూత్రస్య సామాన్య లక్షణం. వ్యాకరణశాస్త్రే సూత్రాణాం షట్ ప్రభేదాః సంతి. దేర్ ఆర్ సిక్స్ డిఫరెంట్ టైప్స్ ఆఫ్ సూత్రాస్. సో ద టైప్ ఇస్ డిపెండింగ్ ఆన్ వాట్ ద సూత్ర ఇస్ మెంట్ టు డూ. తద్దృష్ట్యా షడ్విధాని సూత్రాణి భవంతి వ్యాకరణ శాస్త్రే. సంజ్ఞా సూత్రాణి, పరిభాషా సూత్రాణి, విధి సూత్రాణి, నియమ సూత్రాణి, అతిదేశ సూత్రాణి, అధికార సూత్రాణి ఇది షడ్విధాని సూత్రాణి సంతి. తత్ర ప్రత్యేకం కిముదాహరణం కోర్థః ఇది పశ్యామ. సంజ్ఞా, సంజ్ఞా సూత్రం ఇది ప్రథమవిధం సూత్రం. సంజ్ఞాసూత్రం యథా మయా ఉక్తం హః, వ్యాకరణస్య విశిష్టాః కాశ్చన సంజ్ఞాః భవంతి. అస్మిన్ శాస్త్రే ఉపయోగినః శబ్దాః, శబ్దాః భవంతి. తస్య శబ్దస్య వ్యాకరణశాస్త్రే కశ్చిత్ విశిష్టః అర్థః భవతి. తాదృశస్య సంజ్ఞా ఇతి ఉచ్యతే. ఉదాహరణార్థం వృద్ధిరాదైచ్ ఇత్యస్తి. వృద్ధిః నామ ఆకార ఇకార ఉకారాః ఇతి సంజ్ఞాసూత్రం. ఆ సంజ్ఞా వృద్ధిః ఇతి సంజ్ఞా విధీయతే. తస్య ఆ సంజ్ఞాయాః కః అర్థః, కిం గృహ్యతే తేన పదేన ఇతి ఉచ్యతే. ఇట్ ఇస్ జస్ట్ లైక్ నేమింగ్ సంథింగ్, యు ఆర్ డిఫైనింగ్ ద టర్మ్ వృద్ధి. సో దోస్ టర్మినాలజీస్ విచ్ ఆర్ పర్టిక్యులర్ టు ద శాస్త్ర ఆర్ కాల్డ్ సంజ్ఞా. భూవాదయో ధాతవః, ధాతుః ఇత్యస్తి. సో వాట్ కెన్ బి కాల్డ్ అ ధాతు? దేర్ ఆర్ అబౌట్ 2000 పార్టికల్స్ స్టార్టింగ్ విత్ భూ, ఆల్ ఆఫ్ దెమ్ ఆర్ కాల్డ్ ధాతు. ధాతు ఇది సంజ్ఞా. ఏం సంజ్ఞా ఉచ్యంతే సంజ్ఞాసూత్రై. అనంతరం పరిభాషా సూత్రాన్ని సంతి. పరిభాషా సూత్రాణం అర్థ కథం కరణీయ ఇది విషయే నియమా. తా నియమా పరిభాషా, తే నియమా పరిభాషా ఇది ఉచ్యంతే. అనియమే నియమకారిణీ పరిభాష ఇది పరిభాషాయాః లక్షణం. యత్ర నియమః న జ్ఞాయతే తత్ర అస్య సూత్రస్య ఏవం అర్థకరణీయః ఇది నియమః క్రియతే. యథా ఆద్యంతౌ టకితౌ ఇత్యస్తి. ఆగమాః ఇతి సంతి. సంధికార్యేషు త్రైవిధ్యమస్తి, ఆదేశః ఆగమః లోపః ఇతి. ఆగమః ఇత్యస్తి. ఆగమః నామ నూతనస్య వర్ణస్య యోజనం భవతి. తస్య వర్ణస్య యోజనం కుత్ర భవేత్? ఆదౌ భవేద్వా, అంతే భవేద్వా, మధ్యే భవేద్వా, కుత్ర భవేత్ ఇతి న జ్ఞాయతే. అనియమః విద్యతే. తదా కిముచ్యతే? ఆద్యంతౌ టకితౌ. సహ ఆగమః టిత్ అస్తి చేత్ ఆదౌ భవతి, హిత్ అస్తి చేత్ అంతే భవతి, నిత్ అస్తి చేత్ అంత్యస్య స్వరస్య అనంతరం భవతి ఇత్యాది రీత్యా నియమాః ఉచ్యంతే. సో ఇట్ గివ్స్ సర్టన్ రూల్స్ టు ఇంటర్ప్రిట్ ద సూత్రాస్. తాః పరిభాషాః ఇత్యుచ్యంతే. షష్ఠీ స్థానే యోగ. షష్ఠీ విభక్తిః సూత్రే శ్రూయతే చేత్ తస్య స్థానే ఇకో ఎణచి ఇంతస్య చేత్ ఇకః స్థానే ఎణాదేశో భవతి ఇత్యర్థ కరణీయః. ఏతాః పరిభాషాః ఇత్యుచ్యంతే అథవా పరిభాషా సూత్రాణి. పరిభాషాసు ద్వైవిధ్యమస్తి. పరిభాషా సూత్రాణ్యపి సంతి, తద్భిన్నాః స్వతంత్రతయా పరిభాషాః అపి సంతి. అత్ర తు సూత్రస్య ప్రభేదత్వేన స్వీక్రియతే పరిభాషా సూత్రాణి. యాని సూత్రాణి నియమం బోధయంతి, సూత్రార్థకరణస్య నియమం బోధయంతి, తే तानि सूत्राणि परिभाषासूत्राणि इति उच्यन्ते. तदनन्तरं विधिसूत्राणि. सो विधिसूत्राणामेव बाहुल्यं भवति शास्त्रे. फ्यू टर्मिनालजीस् आर् डिफैन्ड्, फ्यू रूल्स् आर् डिफैन्ड् टु इण्टर्प्रिट् द सूत्र, बट् द मेजारिटि आफ् द शास्त्र कम्प्रैसस् आफ् सूत्रास् विच् गिव् सम् विच् टेल् सम् कार्य इस् हापनिङ्ग्. किमपि कार्यम् उच्यते अर्थात् इको एणचि इत्यनेन इकः स्थाने यणादेशो भवति इत्युच्यते. तत् विधिः. इकः स्थाने यण् स्यात् इति उच्यते, अतः सः विधिः. एवमेव सौजसमोट् इत्यादिना स्वादयः प्रत्ययाः भवेयुः प्रातिपदिकात् इति उच्यते, सः विधिः. वर्तमाने लट्, वर्तमानकाले लट् लकारः भवेत् इत्युच्यते, सः विधिः. कर्मणि द्वितीया, कर्मकारकस्य द्वितीया विभक्तिः भवति. सो एते सर्वे विधि सूत्रस्य उदाहरणानि. सो विधिसूत्रास् मेक् अप् द मेजारिटि आफ् द सूत्रास् आर् विधिसूत्रास्, बट् विधिसूत्रास् के नाट् वर्क् विदौट् द हेल्प् आफ् सम्या परिभाषा. सम्याः परिभाषाश्च सर्वेषां विधिसूत्राणाम् उपयोगकारिणि भवन्ति विधिसूत्रस्य ज्ञानार्थम्. उदाहरणम् अत्रैव अस्ति, कर्मणि द्वितीया. किं नाम कर्म इति चेत्, तत्तुलिच्छिततमं कर्म इति सम्यासूत्रस्य आवश्यकता भवति. इको एणचि इत्यस्ति, इकः यण् अचि. इकः इत्युक्ते इकः स्थाने, अचि इत्युक्ते अचि परे इत्यादि ज्ञातुं परिभाषाणाम् आवश्यकता भवति. सो विधिसूत्र दो दे आर् द इम्पार्टेण्ट् पान्, दे के नाट् बि इण्टर्प्रिटेड् इण्डिपेण्डेण्ट्लि. सम्याणामपि साहाय्यम् अपेक्षते, परिभाषाणामपि साहाय्यम् अपेक्षते. तानि विधिसूत्राणि. चतुर्थः विधः भवति नियमसूत्राणि. नियमः नाम सूत्रेण, उदाहरणार्थं केनापि विधिसूत्रेण किमपि उच्यते, किमपि कार्यम् उच्यते, तस्य नियमः क्रियते. सो वेन् अ कार्य हेज़् बीन् टोल्ड् फार् ए वैड् रेञ्ज् आफ् वाट् एवर् कार्यी, सम्टैम्स् द रेञ्ज् विल् बि माडिफैड्, सः नियमः इत्युच्यते. विधिसूत्रस्य नियमनं क्रियते. उदाहरणं पश्यामश्चेत् सम्यक् ज्ञायते. पतिस्समास एव इत्यस्ति प्रसिद्धम् उदाहरणम्. पतिशब्दः अस्ति, पतिशब्दस्य किं रूपं भवति पञ्चमी षष्ठी इत्यादिषु, पत्युः, पत्युः इत्यादि भवति. षष्ठी विभक्तौ पतिशब्दस्य रूपम् पत्युः इति भवति. हरिशब्दस्य किं भवति, हरेः इति भवति. पतिशब्दस्य तु यद्यपि पतिशब्दः इकारान्तः, पत्युः इति रूपं भवति. तदेव समासे पतिशब्दः अस्ति चेत् किं भवति, भूपतेः, नरपतेः इत्यादिरीत्या हरिशब्दवदेव रूपाणि भवन्ति. एतत्तु ज्ञायते इति मन्ये. अत्र किं कारणम् इति प्रश्नः. यदि केवलः पतिशब्दः अस्ति तदा रूपः रूपं भिन्नं भवति, यदि समासे पतिशब्दः अस्ति तदा रूपं भिन्नं भवति. तत्र कारणमस्ति एका संज्ञा, घी इति संज्ञा अस्ति व्याकरणे. का संज्ञा इति इदानीं मास्तु, शेषोघ्यसखि इति सूत्रेण इकारान्तानाम् उकारान्तानां च घि संज्ञा विधीयते. घि संज्ञा अस्ति चेत् हरिशब्दवद् रूपाणि भवन्ति, हरेः, हरौ इत्यादि रूपाणि भवन्ति. पतिः समासे एव शेषोघ्यसखि इति विधिसूत्रम्, पतिः समास एव, पतिशब्दस्तु समासे एव घिसंज्ञकः भवति, अर्थात् समासे एव तस्य हरिशब्दवद् रूपाणि भवन्ति, भूपतेः, नरपतेः इत्यादिरीत्या. केवलस्य पतिशब्दस्य तु घिसंज्ञा नास्ति, अतः पत्युः, पत्यौ इत्यादीनि रूपाणि. सो पतिस्समास एव इति नियमसूत्रम्. शेषोघ्यसखि इत्यनेन सर्वेषाम् इकारान्तानां घिसंज्ञा प्राप्नोति. पतिस्समास एव इत्यनेन पतिशब्दस्य तु समासे एव घिसंज्ञा भवति इति नियम्यते. तस्मात् इदं सूत्रं नियमसूत्रम् इति उच्यते. एवमेव अन्यदुदाहरणमस्ति, संयोगान्तस्य लोपः इत्यस्ति. संयोगान्तं पदम् अस्ति चेत् तत्र संयोगः नाम अन्ते संयुक्ताक्षरं, हल् द्वयं, व्यञ्जनद्वयम् अस्ति चेत् संयोगः. उदाहरणं संस्कृतम् इत्यस्ति, सकारककारयोः संयोगः संस्कृतभाषायां, संस्कृतम् इति पदे अस्ति. सः संयोगः, सः संयोगः अन्ते अस्ति चेत् लोपः भवति इति
uchyate. So if there is a sanyoga at the end of a pada, it gets deleted. It's a vidhi sutra. That is vidhi sutram. Rat sasya. Rephat sanyoga hasti chet. Sakarasyaiva lopaha bhavati. Anyesha varnanam lopaha na bhavati. So rat sasyaiva lopaha. Rephat parasya. Sakarasyaiva lopaha bhavati. Anyesha varnanam na bhavati. Iti niyamah kriyate. So, Yamasutram kada bhavati, yada vidhisutram asti, vidhisutrasya karya drishtya kashchana niyamah kriyate. Tattadrisham sutram, niyamasutram, iti kathyate. Is that clear? Or would you want me to repeat? Panchamam vidham sutram bhavati atideshaha. So samya paribhasha vidhihi niyamahu atideshaha. Atidesha sutram nama. Ekasmin vastuni anya vastunaha dharmasya aropaha kriyate. Saha atideshaha. Atidesha is imposing the properties of one thing on the other. Udaharanartham, sthanivad adeshaha analvithav. Sthanivad bhavaha iti atideshaha. Sthanivat adeshaha. Adeshaha asti, sthani asti. Adeshaha is, I hope you know what sthaniyad adeshaha. If you are replacing ik with yan, yan iti adeshaha, ik iti sthani. Yaha nutanataya adishyate saha adeshaha. Purvam tasya sthane yat asit saha sthani. No, adeshaha sthanivat bhavati. Sthani yatha asit tathaiva. That is sthaninaha dharmaha adeshe aropyante. Saha atideshaha iti uchyate. Tasya sutrasya purnataya dhenam kadapi bhavati. It's a very important sutra. It says, adesha will behave like sthani, which means you are imposing the properties of the sthani on the adesha. And the Satya Sutra is called Atideshaha. Similarly, Trijvat Kroshtuhu ityasti. Kroshtu iti shabda hasti. Saha Trijvat bhavati. Trijanta rupavat bhavati. Arthat rukarantavat bhavati. Kroshtu iti vasataha ukaranta shabda. Tasya rupani rukaranta rupavat bhavanti. Iti kashchana Atideshaha. So even when it is not rukaranta, the properties of a rukaranta, of a trijanta word are being imposed on the word, on this ukaranta word. Trijvat kroshtuhu, saha atideshaha. Samanyataha atideshaha katham nyayate iti chet vat iti shabdaha bhavati. Sthani vat, trijvat, ityadiritya vati pratyaha yatra shruyate, tadrisham sutram prayena atidesha sutram bhavati. Antimaha sutra prabhedaha asti adhikara sutram. Adhikara sutram kashchana kintana sutram bhavati agrimeshu bahushu sutreshu tasya sutrasya adhikaraha bhavati. Arthad tasya sutrasya anuvrittihi bhavati. Ekam sutram asti agrimeshu sutreshu bahushu tasya sutrasya anuvrittihi bhavati iti sthitihi. Anuvritte hai adhikarasya ta ko bhedaha iti prashnaha. So anuvritti is also where one word from earlier sutras or previous sutras is being taken to latter sutras. Anuvritti vishaye noktam iti manye. Kadachid uktam. Anuvrittihi idanim iko yanachi uktyasti echo ayavayavaha uktyasti. Ikaha achipare enadesho bhavati iti prathamam sutram. Echaha achipare yantavantaha adeshaha bhavanti iti agrimam sutram. Idanim achi iti iko yanachi iti sutrati agrima sutre anuvartate iti vadamaha. Saha anuvrittihi. Upayoginam padanam purva sutrati parasutre anuvrittihi kriyate. Adhikaraha api anuvrittireva. प्रत्ययः इत्यस्ति चेत् बहुषु सूत्रेषु प्रत्ययः प्रत्ययः इति पदस्य अनुवृत्तिः भवति, किन्तु अनुवृत्तेः अधिकारस्य च भेदः अस्ति. अनुवृत्तिः नाम यत्र सूत्रे उच्यते तत्रापि तस्य अर्थः भवति, अग्रिमसूत्रेऽपि अर्थः भवति. इको एणसि इत्युक्ते तस्य सूत्रस्य अर्थः अस्ति, इकः स्थाने अचिपरे एण् भवति इति. एचो अयवायावः इत्यत्र अचि इति अनुवृत्तौ, एतः अचिपरे अयवायावः आदेशाः स्युः इत्यर्थो भवति. किन्तु अधिकारसूत्रस्य स्वीयः अर्थः न भवति. अधिकारसूत्रं विल् नाट् हाव् एन् इण्डिपेण्डेण्ट् meaning by itself. That is, it does not carry any purpose with it. Its only purpose is to be taken in all the further sutras. When joined with each of the further sutras, it gives its meaning. Example, pratyaha ityasti tritiyadhyayasya prathamam sutram pratyaha. Tritiyadhyaye chaturthadhyaye panchamadhyaye cha pratyayadhikaraha asti. Nama pratyaha iti adhikaraha. तृतीयाध्यायस्य आरम्भात् पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तं गच्छति. तेन किं तत्र विधीयमानाः सर्वेऽपि प्रत्ययाः इति उच्यन्ते. केवलं प्रत्ययः इत्यस्य कोऽर्थः? कोऽपि अर्थः नास्ति. इत्युक्ते प्रत्ययशब्दस्य अर्थः अस्ति, प्रत्ययः इति सूत्रस्य कोऽपि अर्थः नास्ति. सर्वत्र इदानीं गुप्तिस्किद्भ्यः सन् गुप्तिस्कित् इत्येतेभ्यः सन् इति प्रत्ययः भवति. कृत् णुल् तृचौ उच्यते, धातुभ्यः णुल् तृच् इति प्रत्ययौ विधीयेते इत्यर्थः. अधिकारः इस् अ सूत्र विच् इस् क्यारीड् ओवर् इन् फर्दर् सूत्र एण्ड् लेन्स् इट्स् मीनिङ्ग् टु आल् द फर्दर् सूत्र. कारके इत्यस्ति, ध्रुवमपाये अपादानम् इत्यत्र कारकं कारके इत्यनुवर्तते, अपादानकारकं भवति. कर्तुरीप्सितमं कर्मकारकं भवति इत्यादिरीत्याधिकारः. एवं प्राक्कडारात् समासः अव्ययं विभक्तिसमीप इत्यनेन अव्ययीभावः समासो भवति. अनेकमन्यपदार्थे बहुव्रीहि समासो भवति इत्यादिरीत्या समासः विधीयते. सो प्राक्कडारात् समासः इति अधिकारसूत्रम्. एवं सूत्राणि षड्विधानि भवन्ति, संज्ञा, परिभाषा, विधिः, नियमः, अतिदेशः, अधिकारः. एनि क्वेश्चन्स्? अस्तु, अग्रे गच्छामः. माहेश्वरसूत्राणि बेसिक् कान्सेप्ट् आफ् माहेश्वरसूत्रम् अक्षरसमाम्नायः वर्णसमाम्नायः इत्यपि उच्यते. कथा विद्यते, दत्तावसाने नटराजराजौ ननादढक्कां नवपञ्चवारम् उद्धर्तुकामस्तनकारिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. माहेश्वरसूत्राणि शिवसूत्राणि इत्यपि उच्यन्ते. नृत्तावसाने नटराजराजः परमेश्वरः नटराजः नृत्तस्य तस्य ताण्डवनृत्यस्य अवसाने अन्ते ढक्कां ननाद, तस्य ढक्कां ढक्कानादं कृतवान् नववारं पुनः पञ्चवारं 9+4 अर्थात् चतुर्दशवारं ढक्कानादं कृतवान्. किमर्थं कृतवान्? सनकादिसिद्धान् उद्धर्तुकामः, सनकादयः सिद्धाः आसन् तेषाम् उद्धरणार्थम्. सनकादिसिद्धान् उद्धर्तुकामः ढक्कां ननाद एतत् शिवसूत्रजालं विमर्शे, तान्येव शिवसूत्राणि तेषां विमर्शं करोमि इति नन्दिकेश्वरकारिकायाम् अस्ति. वस्तुतः इमानि माहेश्वरसूत्राणि ब्रह्मविद्याप्रतिपादकानि इत्यस्ति, किन्तु तान्येव सूत्राणि यदा पाणिनिना अथवा स एव ढक्कानादः यदा पाणिनिना श्रुतः तदा तस्य मतौ एतानि अ इ उन् इत्यादिरीत्या वर्णरूपेण तेन ज्ञातानि इति उच्यते. वस्तुतः नन्दिकेश्वरकारिकायां एतेषाम् अ इ उन् इत्यादीनाम् अकार इकार उकारादीनां ब्रह्मज्ञानस्वरूपेण स्वरूपत्वेन वर्णनम् अस्ति इति वदन्ति. अस्तु, माहेश्वरसूत्राणि, महेश्वरादागतानि माहेश्वराणि. चतुर्दशसूत्राणि सन्ति माहेश्वरसूत्राणि, यत्र संस्कृतभाषायाः वर्णमाला विहिता. So, the Maheshwara Sutra, they give the Varnamala, the alphabet of Sanskrit, in a different form. Idanim Matraka Patha Rupena Adhiyate Varnamala, A, I, E, U, O, Ityadi Ritya, Tatha Nasti, Atra Kamaha Bhinnaha, Tatra Lakshyam, Kimartham Bhinnam Ityapi, Jnayate. Asyeva Akshara Samamnayaha Iti, Varna Samamnayaha Iti Cha Namantaram Vidyate. अक्षराणां समाम्नायः वर्णानां समाम्नायः. नाम्नायः नाम वेदः, अतः वेदसदृशं प्रामाण्यम् एतेषामपि भवति. अपौरुषेयत्वं नाम महेश्वरात् आगतानि इत्यतः एतेषामपि वेदसदृशं प्रामाण्यं विद्यते. अत एव समाम्नायः इत्युच्यते, अक्षरसमाम्नायः अथवा वर्णसमाम्नायः इत्युच्यते. कानि इमानि माहेश्वराणि सूत्राणि? I do not know if you know the Maheshwara Sutras earlier. If you do not know, this is the first thing which you will have to learn by heart. Even the 14 sutras, which are very, 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 very important for Vyakarana. Vyakarana Shastre etad varna pratyaharam vina yopi na chalati. Ayun rilyuk aon I out इति आदिमानि सूत्राणि. ऐ टीच द सूत्रास् फर्स्ट्, प्लीज रिपीट् एण्ड् देन् विल् सी वाट् द सूत्रास् टेल्. अ इ उन् ऋ लुक् ए ओं ऐ औट् ह य वरट् लण् न्यमाङ्गणनम् झभै घढधष् जबगडदश् खफ छठथ चटतौ कपै शोषसर् हल् इति माहेश्वराणि सूत्राणि, चतुर्दश सूत्राणि सन्ति. सो एस् यु केन् सी, इट् इस् जस्ट् अ कलेक्षन् आफ् लेटर्स्. प्रत्येकं सूत्रे वर्णानां कश्चन समुदायः विद्यते. आदौ चतुर्षु सूत्रेषु, चतुर्भिः सूत्रैः, अ इ उ ऋ ल् ए ओ ऐ औ इत्येतैः सूत्रैः स्वराः उच्यन्ते. सर्वे स्वराः, दीर्घः न दृश्यते अत्र, किन्तु दीर्घः आकारः अकारस्यैव प्रभेदः इति व्याकरणशास्त्रे अग्रे उच्यते. अकारस्यैव प्रभेदत्रयमस्ति, ह्रस्वः दीर्घः प्लुतः इति. सर्वोऽपि अकार एव, तस्मात् टुगेदर् हि इस् जस्ट् इण्डिकेटेड् अ. एवमेव इकारस्य ह्रस्वः दीर्घः प्लुतः इत्यादिरीत्या भवति. तस्मात् तस्य भिन्नतया वर्णनम् नास्ति. स एव अ इ उ ऋ ल् ए ओ ऐ औ इत्येते स्वराः. एतदतिरिच्य स्वराः न सन्ति व्याकरणे संस्कृतभाषायाम्. तदनन्तरम् यानि सूत्राणि पञ्चमसूत्रादारभ्य चतुर्दशसूत्रपर्यन्तम् तैः व्यञ्जनानि उच्यन्ते. सो द फस्ट् फोर् सूत्रस् टेल् द स्वरास्, तदनन्तरम् व्यञ्जनानि उच्यन्ते. तत्र पुनः दृश्यते हय वर ल, य व र ल इत्येते अन्तस्थाः इति कथ्यन्ते. यरलव इति अन्तस्थाः, शशसः इति ऊष्माणः. आदौ य व र ल इति अन्तस्थाः हकारोक्त्यस्ति. यमाङ्गणन इत्येते अनुनासिकाः, वर्गाणां पञ्चमाक्षराः सन्ति. झ भ घ ढ ध वर्गाणां चतुर्थाः सन्ति. ज ब ग ड द इति वर्गतृतीयाः. ख फ छ ठ थ वर्ग द्वितीय चटत कप वर्ग प्रथम. You see, he goes in the reverse order. He tells the fifth letters of each varga first. Tataha chaturtha aksharani, tritiya aksharani, dvitiya aksharani, prathama aksharani. Ante shvaksha saha iti ushmana uchyante ushmavarna. So, you see, construction, all vyanjanas are covered from the fifth sutra till the 14th sutra. पुनः अत्रापि भेदः अस्ति. मृदुव्यञ्जनानि कर्कशव्यञ्जनानि इति भेदः अस्ति संस्कृतभाषायां. मृदुव्यञ्जनानि इत्युक्ते वर्गाणां तृतीय चतुर्थ पञ्चमाः हयवरल इत्येतेषां मृदुव्यञ्जनानि इति नाम. अतः आदौ मृदुव्यञ्जनानि उक्तानि, पुनः अन्ते वर्गप्रथमानां द्वितीयानां तथैव ऊष्मवर्णानां कर्कशव्यञ्जनानि इति नाम. अन्ते कर्कशव्यञ्जनानि सन्ति. आहत्य सर्वाणि व्यञ्जनानि एहि सूत्रैहि उच्यन्ते. सत्यम् एषु सूत्रेषु हकारस्य द्विरावृत्तिः अस्ति. हयवरट् इति सूत्रेऽपि हकारः श्रूयते, हल् इत्यत्रापि अस्ति. सः एक एव वर्णः यः द्विवारम् उक्तः. इट् इस् द ओन्ली लेटर् विच् हेस् बीन् रिपीटेड् इन् द माहेश्वरसूत्रस्. तत्र कारणमपि अस्ति. हकारस्य गणद्वये तस्य ग्रहणम् अपेक्ष्यते. अस्य हश् इत्यादिषु मृदुव्यञ्जनेषु तस्य गणनम् अपेक्ष्यते. हकारः वस्तुतः कर्कशव्यञ्जनं नास्ति. कर्कशव्यञ्जन विल् कवर् ओन्ली टिल् शश्स. पुनः अत्र ऊष्मवर्णेषु अपि हकारस्य ग्रहणम् अपेक्ष्यते. सो देर् आर् प्रत्याहाराज. एक्चुअली द कन्स्ट्रक्शन् आफ् माहेश्वर सूत्र इस् फोर् द कन्स्ट्रक्शन् आफ् प्रत्याहाराज, वर्णानां संक्षेपकरणार्थम्. तत्र केषुचित् प्रत्याहारेषु हकारस्य पूर्वत्र ग्रहणम् अपेक्षते, एवमेव केषुचित् प्रत्याहारेषु अन्ते ग्रहणमपि अपेक्षते. तदर्थं हकारस्य द्विवारं ग्रहणं कृतम्. तत्र कारणान्यपि सन्ति शास्त्रे चर्चितानि. तद्विहाय कस्यापि वर्णस्य द्विवारमुच्चारणं नास्ति, अन्त्यस्य वर्णस्य अस्ति. सो इफ् यु नोटिस् ऐ डिड् नाट् कन्सिडर् द लास्ट् लेटर् वै ट्रीटिङ्ग् दिस्. ऐ मीन् यमगणनम् इत्यत्र पञ्चानामेव ग्रहणम्, अन्त्यस्य वर्णस्य ग्रहणं नास्ति. वै, वाट् इस् द पर्पस्? विल् सी इमिडियट्लि आफ्टर्वर्ड्स्. तत्र णकारस्य द्विवारम् आवृत्तिः अस्ति. अ इ उण् इत्यत्र एकः णकारः अस्ति, लण् इत्यत्रापि णकारः अस्ति. सो तत्रापि तस्य विषये अपि अग्रे वदामि. एतौ वर्णौ विहाय अन्यः कोऽपि वर्णः अत्र द्विवारं नोपयुज्यते माहेश्वरसूत्रेषु. माहेश्वरसूत्रस्य बहुमुख्यं प्रयोजनमस्ति प्रत्याहारकरणम्. को नाम प्रत्याहारः चेत् प्रत्याह्रियन्ते, संक्षिप्यन्ते इति अनेन इति प्रत्याहारः. के वर्णाः अनेन संक्षिप्यन्ते. सो प्रत्याहार इस् जस्ट् एन् अब्रिविएशन् फार् लेटर्स्. वर्णानां संक्षेपकरणार्थं प्रत्याहाराः निर्मीयन्ते. प्रत्याहारविधायकम् एकं सूत्रमस्ति, आदिदन्तेन सहेत इति पाणिनीयं सूत्रम्. सो वै दिस् सूत्र पाणिनी टेल्स् हौ टु कन्स्ट्रक्ट् अ प्रत्याहार. प्रत्याहारस्य निर्माणं कथं भवति इति वदति इदं सूत्रम् आदिरन्त्येन सहेत. सूत्रस्य कोऽर्थः, अन्त्येन इता सहितः आदिः मध्यगानां स्वस्य च संज्ञा स्यात् इति सूत्रार्थः. इता नाम इत्सम्यकेन वर्णेन. आदिः, देर् ईस् अ स्टार्टिङ्ग् लेटर् विच् इस् कम्बैनिङ्ग् वित् अन्त्येन इत्सम्यकेन वर्णेन सहितः. Which is combining with an ending letter which has a samya called it. So a beginning letter which is combining with an it letter will give a pratyahara, is what this says. You have to add a letter, a beginning letter to a letter which has it samya. Ka nama it samya iti idaniyam prashnah. Sila antyena ita sahitaha adihi, ita nama it samya kena varnena sahitaha adihi. मध्यगानां स्वस्य च संज्ञा स्यात् इत्युच्यते. इत्संज्ञा नाम का इति प्रश्नः. सो इत संज्ञा प्रकरणम् इत्येव अस्ति अष्टाध्याय्यां प्रथमाध्याये तृतीय पादे तत्र आहत्य सप्त सूत्राणि सन्ति यैः इत् इति संज्ञा विधीयते. इत् इस् अ टेक्निकल् टर्मिनालजी आफ् ग्रामर्. इट्स् अ टर्म् विच् हेस् बीन् डिफैन्ड् इन् ग्रामर्. देर् आर् सर्टन् लेटर्स् विच् आर् काल्ड् इत्. सो देर् आर् एक्चुलि सेवेन् डिफरेण्ट् सूत्रास् विच् टेल् इत् संज्ञा टु डिफरेण्ट् ग्रूप्स् आफ् लेटर्स्. तत्र एकं सूत्रमस्ति हलन्त्यम् इति सूत्रम्. प्रथमाध्यायस्य तृतीयपादे तृतीयम् इदं सूत्रम्. सो पूर्वसूत्रं भवति उपदेशे अजनुनासिक इत्. सो दिस् इस् द फस्ट् सूत्र. उपदेशे अजनुनासिक इत् इस् द फस्ट् सूत्र विच् गिव्स् इत् संज्ञा. हलन्त्यम् इस् द सेकेण्ड्. इदानीम् उपदेशे अजनुनासिक इति मास्तु, हलन्त्यम् इति सूत्रं स्वीकुर्मः. हलन्त्यम् इति सूत्रे उपदेशे इति अनुवर्तते, इत् इत्यपि अनुवर्तते. I'm trying to show how a sutra is interpreted. Sutram kevalam halantyam ityasti, kintu purvasmat sutrat upadeshe iti anuvartate, it ityapi anuvartate. Kadakim abhut upadeshe antyam hal it iti chatvari padani santi. Asmin sutre padadvayam asti, hal iti antyam iti. Purvasutrat padadvayam anuvartate, upadeshe iti it iti. तेन चत्वारि पदानि सन्ति सूत्रे. इत्संज्ञाविधायकं सूत्रम्. सूत्रार्थकः उपदेशे अन्त्यं हल् इत् स्यात् इति सूत्रार्थः. सो द एण्डिङ्ग् कान्सनेण्ट् आफ् एन् उपदेश विल् बि काल्ड् इत्. सो वै डिड् वि कम् हियर्? आदिरन्त्येन सहेता इति सूत्रे इत् इति संज्ञायाः उपयोगः अभूत्. इता सहितः आदिः, इत्संज्ञा नाम का इति ज्ञातुम् अस्य सूत्रस्य आवश्यकता. उपदेशे अन्त्यं हल् इत् भवति. यदि उपदेशे अन्त्ये व्यञ्जनम् अस्ति, तस्य इत् इति संज्ञा भवति इति ज्ञातम्. इदानीम् उपदेशः नाम कः इति प्रश्नः. सो दिस् इस् हौ सूत्र इण्टर्लिङ्क्. यु केन् नेवर् इण्टर्प्रिट् अ सूत्र इण्डिपेण्डेण्ट्लि आफ् एव्रिथिङ्ग् एल्स्. फार् ईच् सूत्र यु विल् नीड् नालेज् आफ् अदर् सूत्र. उपदेशः इत्यस्ति, उपदेशः नाम कः इति प्रश्नः. तत्र सूत्रं नास्ति, किन्तु पुनः एका कारिका विद्यते. धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् आगमप्रत्ययादेशाः उपदेशाः प्रकीर्तिताः. उपदेशः नाम कः चेत् धातुः. भू, एध इत्यादिरीत्या धातवः वक्ष्यन्ते किल, ते उपदेशाः. सूत्रम्, सूत्रम् उपदेशः. गणः, शब्दानां गणाः सन्ति, यथा सर्वादिगणः तद्दिने अधीतं, सर्व विश्व उभ उभय इत्यादिरीत्या सर्वादिगणः अस्ति. उणादिः, उणादिसूत्राणि इत्यपि सन्ति, उणादिप्रत्ययाः सन्ति. वाक्यं नाम वार्तिकम्. लिङ्गानुशासनम्, आगमप्रत्ययादेशाः, आगमाः प्रत्ययाः आदेशाः. सो आल् दीस् विल् बि काल्ड् एन् उपदेश. उपदेशः नाम कः इति चेत् एते सर्वेपि उपदेशत्वेन उच्यन्ते. All these are considered as upadesha. Dikshitastu upadeshaha adyocharanam iti vadanti. So whatever Panini or Vararuchi has told initially with the intent of defining it like a sutra. I mean upadeshaha adyocharanam ityasya yameva artha. Adyocharanam, that which was first told by the Munitraya, which is Panini or Katyayana or Patanjali, is called upadesha. For us, upadesha will mean any of these. If it is a dhatu, it will be upadesha, which means if there is a consonant at the end of a dhatu, it will get itsamya. Sutra will be called upadesha. Therefore, if there is a consonant at the end of a sutra, tasya it iti samya bhavati. Eva meva sarvatra. Idani maheshwarani sutrani santi. So, we have dealing with sutras. Eshu sutreshu antyasya vyanjanaksharasya हलन्त्यम् इति सूत्रेण इत्संज्ञा प्राप्ता. रैट्? सो हलन्त्यम् इत्यनेन किमुच्यते? उपदेशे अन्त्यं हल् इत् भवति. हल् नाम व्यञ्जनम्. सो द एण्डिङ्ग् कान्सनेण्ट् आफ् एनी उपदेश विल् बि काल्ड् इत्. माहेश्वर सूत्र इस् काल्ड् इन् द माहेश्वर सूत्र द एण्डिङ्ग् आफ् ईच् माहेश्वर सूत्र That is the ending consonant a, e, un ityasti. Ante vyanjanam asti. Tatsya vyanjanaksharasya it iti samya bhavati. One more example for what? Swati Bhagini. Kasya udaharanam apekshyate. उपदेशम प्रत्ययः अस्ति इदानीं सु औजस् स्वादयः प्रत्ययः सन्ति अन्तिमः सप्तमी विभक्तौ बहुवचने सुप् इति प्रत्ययः अस्ति आगम प्रत्ययादेशः प्रत्ययस्य उपदेशत्वम् अस्ति सुप् इति अन्ते प्रत्ययः तस्य प्रत्ययस्य अन्ते व्यञ्जनम् अस्ति तस्य इत्संज्ञा भवति चेत् लोपः अपि भवति सो सु रमा सु सो वेर् एवर् यु गो द सप्तमी बहुवचन यु विल् हियर् दट् सु The pratyaya is originally sup, which is a upadesha. Su aujas ityadina uchyate, saha pratyaya. Pratyaya upadesha. So upadeshasya ante vidyamanasya vyanjanakshayasya. Pakarasya itsamya bhavati, tasya lopaha api bhavati. So tena sarvatra su iti shruyate. Saha upadesha. Agamaha bhavanti. Nut iti agamaha asti. So agame antyasya pakarasya itsamya bhavati. Adeshaha bhavanti. Kadachit. अनंग इति आदेशः भवति अन्ते ngakarah asti तस्य ngakarasya itsamya bhavati lopah bhavati so all these particles any pratyaya is an upadesha any adesha will be an upadesha any agama any sutra any dhatu is called an upadesha so yeshu upadesha bhuteshu antyasya vyanjanaksharasya hanantyam iti sutrena itsamya तेन किं भवति माहेश्वराणि यानि सूत्राणि सन्ति द 14 सूत्रास् विच् वी स्टडीड् नौ यु सी दट् देर् इस् अ कान्सनेण्ट् लोकेटेड् एट् द एण्ड् आफ् ईच् सूत्र रैट् ईच् सूत्र एण्ड्स् वित् अ कान्सनेण्ट् सो एतेषां सर्वेषां व्यञ्जनानां इफ् यु लुक् हियर् अ इ उण् नकारस्य हलन्त्यम् इत्यनेन इत् संज्ञा विधीयते ऋलुक् ककारस्य इत् संज्ञा अस्ति So, there are 14 letters which get itsamya in the 14 Maheshwara Sutras. Right? This much clear? Itsamya Vishaya Jnatam. So, Nena Kima Bhavati, Maheshwara Sutreshu, Antyasya Vyanjanasya Sarvatra It Iti Samya Jnata. Itsamyayaha Kim Prayojanam? आदिरन्त्येन सहेता इत्यस्ति अन्त्येन इता सहितः आदिः मध्यगानां सत्सज संज्ञा स्यात् इति उक्तम् विच् मीन्स् प्रत्याहार इस् क्रियेटेड् बै एडिङ्ग् ए लेटर् एनी बिगिनिङ्ग् लेटर् लेट्स् से अकार इस् द फर्स्ट् लेटर् टु अ लेटर् विच् हेज् एन् इत्संज्ञा आदिः इत्संज्ञकः वर्णः यु नीड् टु लेटर्स् टु क्रियेट् अ प्रत्याहार द फर्स्ट् एनी बिगिनिङ्ग् लेटर् एण्ड् एनी लेटर् विच् हेज् एन् इत्संज्ञा अ इति आदिः अस्तु इदानीं णकारस्य इत् इति संज्ञा अस्ति अण् इति इदानीं प्रत्याहारः अण् इति प्रत्याहारेण किं ज्ञायते अन्त्येन इता सहितः आदिः इता नाम णकारेण अत्र णकारेण सहितः आदिः नाम अकारः सो वेन् णकार वेन् अकार कम्बैन्स् वित् णकार टु फार्म् अण् मध्यगानां सो बिट्वीन् दीस् लेटर्स् वाट् एवर् इस् प्रसेण्ट् इकारः उकारः च अस्ति सो फार् ई एण्ड् उ स्वस्य च संज्ञा स्यात् स्वस्य नाम अकारस्यापि संज्ञा भवति सो अण् विल् मीन् अ इ उ क्लियर् हौ टु क्रियेट् अ प्रत्याहार टेक् एनी बिगिनिङ्ग् लेटर् एण्ड् एड् एन् इत् संज्ञा लेटर् टु इट् सो वन्स् यु डू यु गेट् अण् विच् इस् अ प्रत्याहार द प्रत्याहार इस् एन् अब्रिवियेशन् For all letters which are in between these two letters, akara nakara yor madhye ye varnaha santi, te sarve anena pratyaharena gahyante, swayam adivarnaha, the first letter which is akara is also taken by the letter. So, an ityanena, a, e, u, ityate varnaha gahyante. Okay. Prashnaha 1 and 6, that is, ऐ उण् इति सूत्रेऽपि णकारस्य इति संज्ञा अस्ति लण् इति सूत्रेऽपि णकारस्य इति संज्ञा अस्ति सत्यम् There are two sutras, Maheshwara sutras, which have, both of which have nakara as its samya letter. So there it might lead to a confusion. You should be aware of it. Now, coming back, this is how you create a pratyahara. Let's see one more example. Ach ityasti. Katham akaraha asti. A I un rulruk e om I ouch. Sakaraha. Sakarasya itsamya asti. So antyena ita chakarena sahitaha adihi akaraha. So let's create a pratyahara using a and ch. Ach ityasti. Kimuktam. Ach is an abbreviation for everything that falls between and also for akara. Idani madhye kim asti, e, u, r, l, a, o, I, o ityasti, kintu n, k, m ityapi santi. These letters are also in between, right? I, e, un, r, l, k, iti nakaraha, kakaraha, ngakaraha api asti. Tesham api ach iti pratyaharena grahanam bhavati va, iti prashnaha. Should we consider those letters also as part of this pratyahara? No. Pratyahareshu itam na grahanam. Yesham varnanam it iti samya asti, tesham varnanam grahanam na bhavati. So, na will not be considered in any pratyahara. K will not be considered in a pratyahara. Tena kim jatam ach ityukte madhyagaha varnaha. E u rul a o I o. Ityete varnaha swayam akaraha. So, ach is an abbreviation for all these letters. This is nothing but swaraha. That is why we say ach nama swaraha. Ajantaha nama swarantaha shabdaha. Okay? Any questions about creating pratyaharas? Or interpreting pratyaharas. Pratyaharaha katham karaniyaha pratyaharena kevarnaha gahyante. It is pashtamba. Sorry. Satyam pratyaharaha namakaha iti uktam katham pratyaharasya nirmanam karaniyam pratyaharena keke varnaha grihyante. What will be the components? Anna ityukte kim? Ach ityukte kim? Iti jnatam. Any questions regarding those? Now if I give any pratyahara, say if I say a pratyahara like vall, we should be able to say what are included in that pratyahara. What are the letters which are included in that pratyahara? Gyatam? Prasiddhaha kechana pratyaharaha. Kechana, there are very famous a few pratyaharas. Ach iti sarvaihi jnayate. Nama swaraha. Katham iti danimam drishtam. Ach iti akaradarabhya chakara paryantam pratyaharaha. E u rul a o I o. Itte tesham pratyaharaha. Sarve swaraha tena sangrihitaha. Evameva hal ityasti. Hal nama vyanjanam. Haya varat ityatra akaradarabhya. Ante hal iti yadasi tasya lakarasya paryantam hal iti pratyaharaha tena sarvani vyanjanani grihyante. So all consonants are captured by that pratyahara. Evameva al iti pratyaharaha asti yena sarve varnaha grihyante. Al will mean any alphabet in the any letter in the alphabet, like a, a I un akaradarabhya hal ityatra lakara paryantam pratyaharaha. Tena sarve varnaha grihyante. Evameva hash iti pratyaharaha asti. Hayavarat lan nyamangananam jabhai ghadhadash jabagadadash iti shakara paryantam pratyaharaha. Tena sarvani mridu vyanjanani grihyante. If you go back to my slide on those Maheshwara sutras, you will see that hash is the pratyahara which will capture the mridu vyanjana part of it. Evameva khar ityasti. खपचटतटतौ कपै शोषसर् इत्यनेन कर्कशव्यञ्जनानि गृह्यन्ते. एवमेव जश् इत्यस्ति जलां जशोऽन्ते जस्त्वं सर्वैः ज्ञायते. जश् इत्युक्ते जबगडदश् वर्गतृतीयाः वर्गतृतीयाः जश् इत्यनेन गृह्यन्ते. यण् इत्यस्ति अन्तस्थाः हयवरट् इत्यत्र यकारः अस्ति. So please notice that it is not necessary that you have to create a pratyahara from the beginning letter of a Maheshwara Sutra. So here we have all taken A, E, Un. You can also start with E, you can start with U, you can start with any letter of the Maheshwara Sutra. The end has to be compulsorily itsamya, tamadeva. Then an iti pratyahara asti, in ityasti, uk ityasti, sarvani santi. सो यण् इत्यनेन हयवरट् इति यः यकारः तेन आरभ्य लण् इत्यत्र अकारपर्यन्तं तेन यकारवकाररेफलकाराः गृह्यन्ते. एवमेव शल् इत्यस्ति शशसर् हल् इत्यनेन ऊष्मवर्णाः गृह्यन्ते. सो यु सी दट् आल् फेमस् केटगरीस् आफ् द वर्णमाला विच् वि लर्न् आर् केन् बि केप्चर्ड् बै प्रत्याहारः. अत एव प्रत्याहारः संक्षेपेण वर्णकथनार्थम्. अत एव इदानीं पृच्छ्यते हरिहरमहोदयेन हल् इति प्रत्याहारः केवलस्य हकारस्यापि भवितुमर्हति. हयवरट् इत्यत्र हकारादारभ्य व्यञ्जनानामपि. इफ् इट् इस् मेण्ट् टु कन्वे केवल हकार दर् इस् नो नीड् टु मेक् अ प्रत्याहार. केवलं ह इत्येव वक्तुं शक्यते. सो प्रत्याहार इस् आल्वेस् फार् अब्रिवियेटिङ्ग्. इट् शुड् केरि अट्लीस्ट् टु लेटर्स्. तदैव प्रत्याहारः भवति. केवलस्य एकस्य वर्णस्य कृते प्रत्याहारः न भवति. तेन प्रयोजनं नास्ति. देर् इस् नो पायिण्ट्. इट् इस् यूस्लेस्. यु आर् एक्चुली इन्स्टेड् आफ् सेयिङ्ग् ह यु आर् सेयिङ्ग् एन् एक्स्ट्रा लेटर्. वेन् युर् एम् इस् टु मेक् इट् ब्रीफ् यु आर् इन्क्रीसिङ्ग् इट्. सो हल् विल् आल्वेस् हेव् टु बी फ्रम् हयवरट् टिल् हल्. ओके. सो सः एकः विषयः. एते प्रसिद्धाः प्रत्याहाराः. अपरः विषयः अस्ति विच् ऐ शुड् हव् टोल्ड् अर्लियर्. हयवरट् लण् इत्यादिषु अकारः श्रूयते हयवर इत्यादि. किन्तु सः अकारः केवलम् उच्चारणार्थः. इट् इस् ओन्ली फार् ईस् आफ् प्रोनौन्सियेशन् बिकास् कान्सनेन्ट्स् केनाट् बि प्रोनौन्स्ड् इण्डिपेण्डेण्ट्लि. स्वतः स्वयं तेषाम् उच्चारणं न भवति. इत्यतः हयवर इति उच्चारणसौलभ्यार्थम् अकारः अस्ति. In no, none of those pratyaharas, the akara is considered. That is why, say when I am saying jash, I say it means jakara vakana. J, b, g, d, d, iti vyanjana nama eva grahanam, nato ja, ba, iti akara sahitanam. Any questions? Okay. प्रश्नः अस्ति णकारः द्वित्र अस्ति णकारस्य ग्रहणम् अ इ उन् इत्यत्रापि णकारः अस्ति. लण् इत्यत्रापि णकारः अस्ति. कस्य णकारस्य ग्रहणम् इत्यत्र नियमः अस्ति अण् प्रत्याहारः सर्वदा पूर्वेण णकारेण. पाणिनी सेज् अण् इन् 99% आफ् द केसेस् हि इस् क्रियेटिङ्ग् अ प्रत्याहार वित् द प्रीवियस् नकार. इट् इस् अ इ उ. And always means a, e, u, except in a single sutra. There is one particular sutra where an is taken till the second letter. That is a, e, u, rulu, e, o, I, o, haya, vara, la. But that is only one sutra. Other than that sutra, an will always mean the first nakara. In is always a pratyahara. 100% of the time, in is a pratyahara with the second nakara. So, in always means E-U-R-U-L-E-A-O-I-O Hayavara-La. Okay? And in is never intended to mean E-U. So, how do we know this? So, Bhashyakara himself tells that Parena Nakarena In Grahanam, Purvena Nakarena And Grahanam. So, An is always with the Purva Nakara, In is always with the Paranakara. For An, there is one exception. There is one sutra where An is with the second Nakara. Ataha An Nityanena both are there, but in iti sarvada paranakarena iva iti niyama. Okay. ప్రత్యాహారాణం సంఖ్య, హౌ మెనీ ప్రత్యాహారాస్ డు వి హావ్ ఇస్ ది క్వశ్చన్. సో కేవలం పర్మ్యుటేషన్ కాంబినేషన్ ఇది క్రియతే చేత్ అనేకే సంఖ్యాకాః ప్రత్యాహారాః సంభవంతి. దేర్ ఆర్ లాట్స్ ఆఫ్ ప్రత్యాహారాస్, హండ్రెడ్స్ ఆఫ్ ప్రత్యాహారాస్ విచ్ కుడ్ బి క్రియేటెడ్ ఇఫ్ యు గో ఆన్ క్రియేటింగ్ విత్ ఫ్రమ్ అ యు కెన్ క్రియేట్ 14 వెట్నక్ ఎట్సెట్రా. Again, from A, E, U, R, you can create 13. So, always pratyahara is with a nitsamya letter which comes later. You cannot take, say, H and create a pratyahara with the previous kakara. Right? It always moves forward. That is one more rule. So, even then, sambhavitanam pratyaharanam sankhya adhikayava asti. There can possibly be lots of pratyaharas that can be created. Kintu, పాణినినా అథవా వరరుచినా వ్యాకరణే చతుశ్చత్వారింశత్ ప్రత్యాహారాః ఏవ ఉపయుక్తాః. దేర్ ఓన్లీ 44 ప్రత్యాహారాస్ విచ్ హావ్ బీన్ యూస్డ్ బై పాణిని ఆర్ కాత్యాయన ఇన్ హిస్ వ్యాకరణ. సో ఐ థింక్ ఐ లెట్ అస్ స్టాప్ హియర్. ఐ వాంటెడ్ టు కవర్ అ బిట్ మోర్ బట్ ఐ విల్ కవర్ దిస్ ప్రత్యాహారాణాం సంఖ్య ఇది అగ్రే కరం. ఓకే, విల్ సీ దిస్ ఇన్ ద నెక్స్ట్ క్లాస్. ఐల్ ఫినిష్ దిస్ అండ్ దెన్ టేక్ ఇట్ ఫార్వర్డ్. ఎనీ క్వశ్చన్స్ సో ఫార్ యూ కెన్ ఆస్క్. సో ప్లీజ్ గో త్రూ దిస్ అగైన్. ఇఫ్ యూ హ్యావ్ ఎనీ క్వశ్చన్స్ ఎనీ టైమ్ యూ కెన్ ఇదర్ సెండ్ అక్రాస్ ఎ మెయిల్ ఆర్ ఆస్క్ మీ ఇన్ ద నెక్స్ట్ క్లాస్. విషయద్వయం అస్తి. గోవింద మహోదయ వదతి ఇదానీ సర్వై మ్యూట్ క్రియతే ఖిల. యదా వెన్ పీపుల్ లాగిన్ తదైవ ఏకం ఆప్షన్ భవతి, డు యూ వాంట్ ఆడియో వీడియో ఆర్ స్టాటిక్ ఇమేజ్ ఇది. సో ఇఫ్ పీపుల్ డు నాట్ చూస్ దట్ ఆడియో వీడియో, నో ఆడియో వీడియో ఇది ఉచ్యతే చేత్ డిస్టర్బెన్స్ న్యూనం భవతి ఇది తస్య అభిప్రాయ. తదా మ్యూట్ కరణస్య ఆవశ్యకత నభవతి. Just by itself, the audio and video of other users will not be transmitted. Mama audio shruyate iti ekaha the suggestion by Govindisi. Maybe we can all try this, this because yeah, it gets unmuted by itself sometimes. Since it disturbance shruyate, but next time please try it and see if it works better. పర హరిహర మహోదయ పృచ్చతి యహ సహ షడ్వాదనే శక్యతే వా ఇతి పృష్టవాన్. సప్తవాదనే శక్యతే వా ఇతి, సార్ధ షడ్వాదనే శక్యతే వా ఇతి పృచ్చతి. తత్తు తదేవ ఇట్ ఇస్ ఫర్ యు టు కమ్ అప్ విత్ ఇట్ సార్ధ షడ్వాదన. బట్ ఐ ఆల్సో ప్రిఫర్ 6 బట్ యు కెన్ వర్క్ ఇట్ అవుట్ అమంగ్ యువర్ సెల్ఫ్ ఓవర్ ద వీక్. పృచ్చంతు పశ్యామః కథం భవతి ఇది. శనివాసరే సార్ధషడ్వాదనే శక్యతే వా. హూనాం శనివాసరే విరామః నాస్తి అతః శీఘ్రం సమాపనీయమితి ఏ అత్ర సంతి తేషాం అభిప్రాయః. మేబి యూ కెన్ హ్యావ్ అ పోల్ అండ్ సీ హౌ మెనీ పీపుల్ వుడ్ ప్రిఫర్ 6 or 6:30 అండ్ దెన్ డిసైడ్. Let us, and then tell me, so according to it, let us see. Okay. Enakshasamam nāyamadhikam maheshwaram kṛtnam vyākaranam proktam tasmai pāṇinaye namaha. Akṛtāram vararuchim bhashyakāram patanjalim pāṇinim sutrakāram ca pranatvasmi munitrayam munitrayam namaskritya taduktih paribhāvyaca vaiyākaranasiddhānta kaumudīhyam virachyate.